प्रणाणाम् त्वा गणपतिगुं हवामहे कविम् कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पतान शृण्वन्नोतिभिः सेधसादनम् प्रणो देवी सरस्वती वाजिनीवते धीनामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रवन्यव उतो तैषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इष शिवतमा शिवम् बभूवते धनुः शिवा शरव्यायातवतया नो रुद्रमृडया याते रुद्रशिवा तनुरघोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभि चाकशेः यामिषुम् गिरिशन्तहस्ते बिभर्षस्तवे शिवाङ्गिरित्रताम् कुरु माहि पुंसि पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्चा वदामसे यथा नः सर्वमिज्जगदयक्ष्मगुम् सुमना असत् अद्य वोचदधिभक्ता प्रथमो दैव्योऽभिषक अहेकश्च सर्वाञ्जम्भयन् सर्वास्य यातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः ये चेवागुम् रुद्रा अभितो दिक्षुश्रिता सहस्रशो वैशागुम् हेड इमहे असौ यो वसर्पतिलीलग्रीवो विलोहितः उतैनम् गोपादृशन्नदृशन्नुदहार्यः उतैनम् विश्वा भूतानि स दृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अथो ये अस्य सत्त्वा नोऽहम् तेभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयोरार्णियोर्ज्याम् याश्च देहस्त इषवः पराता भगवो वपा अवतत्यदनुस्त्वगुम् सहस्राक्षशते शुधे निशेर्य शल्यानामुखा शिवो न सुमना भव विज्यम् धनुक्कपर्दिनो विशल्यो बाणवागुम् उता अनेशन्नस्येशव आभुरस्य निशम् गतिः याते हेतिर्मीडुष्टमहस्ते बभूवति धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधायानाततय धृष्णवे उभाभ्यामुतते नमो बाहुभ्या तव धन्वने परिते धन्वनो हेतिरस्मान्नृणक्तु विश्वतः अथो य इषु दिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन्विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्य पशूनां पतये नमो नमः सस्पिञ्जराय त्विषीमते पथीनां पतये नमो नमो बभ्लुषाय विव्याधिनेन्नानाम् पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पतये नमो नमो भवस्य हेत्ते जगताम् पतये नमो नमो रुद्राय तथा विने क्षेत्राणाम् पतये नमो नमः सूताय हन्त्याय वनानाम् पतये नमो नमो रोहिताय स्थपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुपन्तये वारिवस्कृतायौषधीनाम् पतये नमो नम उच्चैर्घोषायात् क्रन्दयते पत्थीनाम् पतये नमो नम कृत्स्नभीताय धावते सत्त्वनाम् पतये नमः नमः सहमानाय निव्याधिनाव्याधिनीनाम् पतये नमो नम ककुभाय निषङ्गिणे स्तेनानाम् पतये नमो नमो निषङ्गिण इषु धिमते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते स्तायूनाम् पतये नमो नमो निचेरवे परिचरायारण्यानाम् पतये नमो नमः श्रिकाविभ्यो जिकागुं सद्भ्यो मुष्णताम् पतये नमो नमोऽसिमद्भ्यो नक्कं चरद्य प्रकृन्तानाम् पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानाम् पतये नमो नम इषु मद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम स्वत्पद्भ्यो जाग्रद्भ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नम सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्यो अश्वपतिभ्यश्च वो नमः नम आव्याधिनीभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्त्रिगुंहतेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रतिभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपदिभ्यश्च वो नमो नम सेनाभ्यः सेनानिभ्यश्च वो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नम दक्षभ्यो रथकारेभ्यश्च वो नमो नम कुलालेभ्य कर्वारेभ्यश्च वो नमो नम पुञ्जष्टेभ्यो निषादेभ्यश्च वो नमो नम इषु कृभ्यो धन्वकृभ्यश्च भो नमो नमो मृगयुभ्यश्वनिभ्यश्च भो नमो नमः श्वभ्यश्वपदिभ्यश्च भो नमः नमो भवाय च रुद्राय च नमः शैवाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युप्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिभिष्टाय च नमो मीडुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वैशेयसे च नमो वृद्धाय च संवृध्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्रियाय च शेभ्याय च नमः ऊर्म्याय च वस्वन्याय च नमः श्रोतस्याय च द्वेप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च प्रगल्भाय च नमो जगन्याय च बुद्धियाय च नमः सोऽभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च गक्षाय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय चावभिन्दते च नमो वर्मिणे च वरूथिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनञ्जाय च नमो धृष्णवे च प्रभृशाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेशुधिमते च नमस्तीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुदन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च नीप्याय च नमः सोद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वर्षाय च वर्षाय च नमो मेघ्याय च विद्युत्याय च नमः ईद्र्याय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयो भवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तीर्थ्याय च कोल्याय च नमः भार्याय च भार्याय च नमः प्रतरणाय चोत्तरणाय च नमः तार्याय च लाद्याय च नमः शष्प्याय च फेन्याय च नमः सिकत्याय च प्रवाह्याय च नमैरिञ्जाय च प्रपथ्याय च नमः केगुंशिलाय च शयनाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः स्थल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदय्याय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्म्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमोपघुरमाणाय चाभिघ्नते च नमः आख्यदते च प्रख्यदते च नमो वक्किरिकेभ्यो देवानोगुं हृदयेभ्यो नमो विक्षेणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः द्रापे अन्धसस्पते दरिद्रन्नीललोहिता एषाम् पुरुषाणामेषाम् पशूनाम् माभिर्मा रोमो एषाम् किञ्चनामवत् या ते रुद्रशिवा तनु शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तया नो मृडजीवसे हिमागुम् रुद्राय धवसे कपर्दिने क्षयद्वेराय प्रभरामहे मतिम् यथा नश्यमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रोतनो मयस्कृति क्षयद्वेराय नमसा विधेमते यच्छम् च योश्च मनुरायजे पिता तदश्याम तव रुद्र प्रणीतो मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वधे पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतन हेमान आयुषि मानो गोषु मानो अश्वेषुरीरिषः वीराण्मानो रुद्रभामितो वदेर्हविष्मन्तो नमसा विधेमते आरात्ते गोग्न उत पूरुषग्ने क्षयद्वेराय सुम्नवस्मेते अस्तु रक्षा च नो अधि च देव ब्रूयधा च न शर्म यच्छद्विबर्हाः सुहिश्रुतम् गर्थ सदयुवानम् मृगण्ण भीममुपहत्नुमुग्रम् मृडा चरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतिर्वृणक्तु परित्वेषस्य दुर्मतिरघायोः अवस्थिरामघवद्यस्तनुष्वमेद्वस्तोकायतनयाय मृडया मीढुष्टमशिवतम शिवो नः सुमना भव परमे वृक्ष आयुधम् निधाय कृत्तिम् वसान आचर पिनाकम् बिभ्रदा जहे विकिरिड विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोऽन्यवस्मन्निव पन्तु ताः सहस्राणि सहस्रधा बाहुवोस्तव हेतयः तासामीशानो भगवः पराजेनामुखाकृते सहस्राणि सहस्रशो ये रुद्र अधिभूम्या तेषागुम् सहस्रजो जने वधन्वानि तन्वसे अस्मिन्महत्यर्णवेऽन्तरिक्षे भव अधि नीलग्रीवाशिकण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाश्रिति कण्ठादिवकुम् रुद्र उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकास कपर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु पिबतो जनान् ये पथाम् पतिरक्षय ऐलभृदायव्युधः ये तीर्थानि प्रचरन्ति श्रिकावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्थिरे तेषागुंसहस्रजो जने वधन्वाणि तन्वते नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिविजेषामण्डम् वातो वर्षमिषभस्तेभ्यो दश प्राचीर्दश दक्षिणादश प्रति चीर्दशोदे चीर्दशोर्ध्वास्तेभ्यो नभस्ते नो मृळयन्तु तेजम् विश्वो यश्च नो द्वेष्टितम् भोजम् भेदधामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षे यमामृतात् यो रुद्रो अग्नव्यो अप्सु य ओषधेषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्योर्मर्त्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो भाविशान्तकः तेनान्येनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु हि यस्विशुः सुधन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशो मनसाय रुद्रम् नमोभिर्देवमसुरन्दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेषजोऽयम् शिवाभिमर्शनः ओ शान्ति शान्ति शान्तिः ॐ शं च मे मयश्च मे प्रियं च मेऽनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वत्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे बाहश्च मे संविच्य मे ज्ञात्रम् च मे सोश्च मे प्रसोश्च मे शीलम् च मे लयश्च मृतम् च मे मृतम् च मे यक्ष्मम् च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुगम् च मे शयनम् च मे सोषा च मे सुदिनम् च मे ओ शान्ति शान्ति शान्तिः ॐ भद्रं कर्णे विश्रुणुयामदेवाः भद्रं पश्येमाक्षभिर्यशत्राः स्थिरैरङ्गैस्तु सुवांसस्तनोभिः व्यशेम देवहि संयतायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्षो अरिष्टयेभिः स्वस्ति नो बृहस्पतिर्ददातु ॐ शान्ति शान्ति शान्तिः ॐ नमस्ते गणपतये त्वमेव प्रत्यक्षं तत्त्वमसि त्वमेव केवलं कर्तासि त्वमेव केवलं धर्तासि त्वमेव केवलं हर्तासि त्वमेव सर्वं खल्विदं ब्रह्मासि त्वं साक्षादात्मासि नित्यं ऋतं भज्मे सत्यं भज्मे अवत्वं माम् अवभक्तारम् अवश्रोतारम् अवदातारम् अवधातारम् अवानूचानमवशिष्यम् अवपश्चात्तात् अवपुरस्तात् अवोत्तरात्तात् अवदक्षिणात्तात् अवचोर्ध्वात्तात् अवाधरात्तात् सर्वतो मां पाहि पाहि समन्तात् त्वं वाङ्मयस्त्वं चिन्मयः त्वमानन्दमयस्त्वं ब्रह्ममयः त्वं सच्चिदानन्दाद्वितीयोऽसि त्वं प्रत्यक्षं ब्रह्मासि त्वं ज्ञानमयो विज्ञानमयोऽसि सर्वं जगदिदं त्वत्तो जायते सर्वं जगदिदं त्वत्तस्तिष्ठते सर्वं जगदिदं त्वयि लयमेष्यते सर्वं जगदिदं त्वयि प्रत्येते त्वं भूमिरापो नलो निलो नभः त्वं चत्वारि वाक्पदानि त्वं गुणत्रयातीतः त्वम् अवस्थात्रयातीतः त्वं देहत्रयातीतः त्वं कालत्रयातीतः त्वं मूलाधारस्थितोऽसि नित्यं त्वं शक्तित्रयात्मकः त्वां योगिनोऽध्यायन्ति नित्यं त्वं ब्रह्मास्त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्मभूर्भुवस्सुभरो गणादेम् पूर्वमुच्चार्य वर्णादेम् तदनन्तरम् अनुस्वारः परतरः अर्धेन्दुलसितम् तारेण रुद्धम् एतत्तममनुस्वरूपम् गकारः पूर्वरूपम् अकारो मध्यमरूपम् अनुस्वारश्चाङ्ग्यरूपम् बिन्दुरुत्तररूपम् नादसन्धानम् सगुम्भिता सन्धिः सैषा गणेश विद्या गणक ऋषिः नितृगायत्री छन्दः गणपतिर्देवता ॐ गङ्गणपतये नमः एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ति प्रचोदयात् एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणं रजं च वरदं हस्तैर्बिभ्राणं मूषकध्वजं रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससं रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितं भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् आविर्भूतं च सृष्ट्यादौ प्रकृते पुरुषात् परम् एवं ध्यायति यो नित्यं स योगी योगिनां वरः नमो भ्रातपतये नमो गणपतये नमः प्रमथपतये नमस्ते अस्तु लंबोदराय एकदन्ताय विघ्ननाशिने शिवसुताय वरदमूर्तये नमः एतदथर्वशीर्षं योधीते स ब्रह्म भूयाय कल्पते स सर्वविघ्नैर्न बाध्यते स सर्वत्र सुखमेधते स पञ्चमहापापात् प्रमुच्यते सायमधेयानो रासकृतं पापं नाशयते प्रातरधेयानो रात्रिकृतं पापं नाशयते सायं प्रातःप्रयुञ्जानो पापो पापो भवते सर्वत्राधेयानोपविघ्नो भवते धर्मार्थकाममोक्षं च विन्दते इदमथर्वशीर्षमशिष्याय न धेयम् यो यदि मोहाद्दास्यति स पापेयान् भवते सहस्रावर्तनाद्यं यं काममधीते तं तमनेन साधयेत् अनेन गणपतिमभिषिञ्चति स वाग्मी भवते चतुर्थ्यामनश्यं जपति स विद्यावान् भवते इत्यथर्वणवाक्यम् ब्रह्माद्यावरणं विद्या न लिबेति कदाचनेति यो दूर्वाङ्गुरैर्यजति स वै श्रवणोपमो भवते यो लाजैर्यजति स यशोवान् भवते स मेधावान् भवते यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति यः साज्यसमिद्भिर्यजति स सर्वं लभते स सर्वं लभते अष्टौ ब्राह्मणान् सम्यग्राहयित्वा सूर्यवर्चस्वे भवते सूर्यग्रहे महानद्यां प्रतिमा सन्निधौ वा जप्त्वा सिद्धमन्त्रो भवते महाविज्ञात् प्रमुच्यते महादोषात् प्रमुच्यते महाप्रत्यवायात् प्रमुच्यते स सर्वविद्भवति स सर्वविद्भवति य एवं वेद इत्युपनिषत् भद्रं कर्णेभिश्रुणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्रा स्थिरैरङ्गैस्तुष्टुवागुंसस्तनोभिः व्यशेम देवहितं यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्ति शान्ति शान्तिः ॐ विष्णोर्नुकं वीर्याणि प्रवोचन्य पार्थिवानि विभमे रजांसि यो अस्कभायदुत्तरगु सधस्तं विचक्रमाणस्त्रेजोरुगायः विष्णोरराटमसि विष्णो पृष्ठमसि विष्णोस्त्रे स्थो विष्णोस्योरसि विष्णोर्ध्रुवमसि वैष्णवमसि विष्णवे त्वा तदस्य प्रियमभिपातो अस्याम् नरो यत्र देवयवो मदन्ते गुरुक्रमस्य स हि बन्धुरित्था विष्णोः पदे परमे मध्व उत्सह प्रतद्विष्णुस्तव ते वीर्याय मृगो न भीमः कुचरो गिरिष्ठाः यस्योरुषु त्रिषु विक्रमणेषु अधिक्षियन्ति भुवनानि विश्वा परो मात्रया तनुवा वृधाना न ते महित्वमन्वश्नुवन्ति उभे ते विद्मरजसे पृथिव्या विष्णो देवत्वम् परमस्य वित्से విచక్రమే పృథివీ మేషయేతా క్షేత్రాయ విష్ణుర్మనుషేద సస్యన్ ధ్రువాసో అస్య కీర యోజనాసః ఉరుక్షితి గుంసుజనిమాచకార త్రిర్దేవ పృథివీ మేషయేతా విచక్రమే శతర్చ సంమహిత్వా ప్రవిష్ణురస్తు తవ సస్తవీయాన్ ద్వేషగృహ్యస్య స్థవిరస్య నామ అతో దేవా అవంతు నోయతో విష్ణుర్విచక్రమే పృథివ్యా సప్తధామభిః ఇదం విష్ణుర్విచక్రమే త్రేధాని దధే పదం సమూఢమస్య పాగుం సురే త్రీణి పదా విచక్రమే విష్ణుర్గోపా అలాభ్యః తతో ధర్మాణి ధారయన్ విష్ణోః కర్మాణి పశ్యత యతో వ్రతాణి పశ్పశే ఇంద్రస్య యుజ్యః సఖా తద్విష్ణోర్ పరమం పదగుం సదా పశ్యంతి సూరయః దివేవ చక్షురా తతం తద్విప్రాసో విపన్యవో జాగ్రువాగుం సస్సమింధతే విష్ణోర్యక్ పరమం పదం పర్యాప్య అనంతరాయాయ సర్వస్తోమోతి రాత్ర ఉత్తమమహర్భవతి సర్వస్యాప్యై సర్వస్య చిత్తే సర్వమేవ తేనాప్నోతి సర్వం జయతి. శాంతి శాంతి శాంతి.
అగ్నిర్మే భాజశ్రితః వాగ్హృదయే హృదయం మయి అహమమృతే అమృతం బ్రహ్మణి వాయుర్మే ప్రాణే శ్రితః ప్రాణో హృదయే హృదయం మయి అహమమృతే అమృతం బ్రహ్మణి సూర్యో మే చక్షుషిశ్రితః చక్షుర్హృదయే హృదయం మయే అహమమృతే అమృతం బ్రహ్మణి చంద్రమా మే మనసి శ్రితః మనోహృదయే హృదయం మయే అహమమృతే అమృతం బ్రహ్మణి దిశో మే శ్రోత్రే శ్రితాః శ్రోత్రగుం హృదయే హృదయం మయి అహమమృతే అమృతం బ్రహ్మణి ఆపో మే రేతసి శ్రుతాః రేతో హృదయే హృదయం మయి అహమమృతే అమృతం బ్రహ్మణి పృథివీ మే శరీరే శ్రుతాః శరీరగుం హృదయే హృదయం మయే అహమమృతే అమృతం బ్రహ్మణి ఓషధి వనస్పతయో మే లోమసు శ్రుతాః లోమాని హృదయే హృదయం మయే అహమమృతే అమృతం బ్రహ్మణి ఇంద్రో మే బలే శ్రుతః బలగుం హృదయే హృదయం మయే అహమమృతే అమృతం బ్రహ్మణి పర్జన్యో మే మూర్ధ్ని శ్రుతః మూర్ధా హృదయే హృదయం మయే అహమమృతే అమృతం బ్రహ్మణి ఈశానో మే మన్యో శ్రుతః మన్యుర్హృదయే హృదయం మయి అహమమృతే అమృతం బ్రహ్మణి ఆత్మామ ఆత్మని శ్రుతః ఆత్మా హృదయే హృదయం మయి అహమమృతే అమృతం బ్రహ్మణి పునర్మ ఆత్మా పునరాయురాగాత్ punah prana punarakutamagat vaishvanaro rashmibhirvagradhanah antastishtatvamritasya gopah om shanti shanti shantihe om yaschandasam rishabha vishvarupaha chandobhyodhramritat sambhabhuva samendra medaya asprinato amritasya devadharano bhuyasam shariram me vicharshanam jivva me madhumattama karna abhyam bhuri vishruvam brahmana koshosi medaya pihitaha shrutam me gopaya medha devi jushamana na aga vishvati bhadra sumanasyamana tvaya jishta nudamana durukta brihadvadema vidate suvira tvaya jishta rishirbhavati devi tvaya brahma gata shriruta tvaya tvaya jishta chitram vindate vasusano jusha svadravino na medhe medham maindro dadatu medham devi saraswati medham me ashvina mubhava dattam pushkarasraja apsara suchaya medham garve suchayanmanaha daive medha saraswati samaam medha surabhir jushata guswaha amaan medha surabhir vishwarupa hiranyavarna jagati jagamya urjaswati payasa pindhamana samaam medha supratika jushanta mai medham mai prajam mai agniste jodadhatu mai medham mai prajam mai indra indriyam dadatu mai medham mai prajam mai suryo brajo dadatu hamsa hamsaya vidmahe paramahamsaya dhimahi tanno hamsa prachodayat
जातमेदसि
सुलवामसो ममराति यतो निदहाति वेदः सरः पर्षदति दुर्गा निविश्वानामेव सिन्धुम् दुरिताद्यग्निः तामग्निवर्णाम् तपसा ज्वलन्तीम् वैरोचनीम् कर्मफलेषु दुष्टाम् दुर्गाम् देवीम् शरणमहम् प्रपद्ये सुतरसि तरसे नमः अग्ने त्वम् पारयानव्यो अस्मान् स्वस्तिभिरति दुर्गानि विश्वा पूष्य पृथ्वी बहुला न उर्वी भवा लोकायतनया यशयोः विश्वानि नो दुर्गः जात वेदः सिन्धुन्दना वा दुरितादिपर्षि अग्ने अत्रिवन्मनसा गृणानो अस्माकम् बोध्य विता तनो ना ऋतनाजितगुंसहमानमुग्रमग्निगुम्हुमेम परमा सदस्तात् स्वनः पर्षदति दुर्गानि विश्वाक्षामद्देव अतिदुरितात्यग्निः प्रत्नोषि कमेद्यो अध्वरेषु शराञ्च होतानव्यश्च सत्से स्वाञ्चाग्ने तनुवम् विप्रयस्मास्मभ्यञ्च सौभगमायजस्व गोभिर्जुष्टमयि जो निषिक्तम् तवेन्द्रविष्णोरनु सञ्चरेम नाकस्य पृष्टमभि संवसानो वैष्णवीम् लोक इहमादयन्ताम् कात्यायनाय विद्महे कन्यकुमारि धीमहि तन्नो दुर्गि प्रचोदयात् स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीमहिषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्ति।